पुलकभूषणमाश्रयन्ति भृङ्गाङ्गनेव मुकुलाभरणं न मालम् अङ्गीकृताखिलविभूतिरमाङ्गलीला माङ्गल्यदातु मम मङ्गलदेवतायाः मुग्धा मुहुर्विदधति वदने मुरारे प्रेमकृपा प्रणिहितानि गतागतानि माला दृशोर्मधुकरीव महोत्पलेया सा मे श्रियं दिशतु सागर सम्भवायाः विश्वामरेन्द्र पदविभ्रमदान दक्षम् आनन्द हेतुरधिकं मुरवे द्विषोऽपि ईशन्निषीदतु मयि क्षणमिक्षणार्धम् इन्दीवरोदर सहोदरमिन्दिरायाः शमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकनीलिकपक्ष्मनेत्रम् भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः पाभन्तरे मधुजितश्रितकौसुभेया हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः कालाम्बुदानि ललितोरसिकैटभारे धाराधरे स्फुरति यातडिदं जलेव मातुः समस्तजगता महनीयमूर्ति भद्राणि मे दिशतु भार्गवनन्दनायाः माङ्गल्यभाजि मधुमाथिनि मन्मथेन मय्यापते तदिह मन्थरमिक्षणार्धम् मन्दालसं च मकरालयकन्यकायाः दद्यादयानुपवलो द्रविणाम्बुधारा अस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे दुष्कर्म घर्मम पलीयचिराय दूरम् नारायण प्रणयिनी नयनाम्बुवाः तिष्ठा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते दृष्टिप्रहृष्टकमलोदरदीप्तिरिष्टा पुष्टिं कृषिष्ट मम पुष्करविष्टरायाः शशिशेखरवल्लभेति प्रलय केलिषु संस्थितायै तस्यै नमः त्रिभुवनैक गुरो तरुण्यै श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै रत्यै नमोऽस्तु रमणीय गुणाल्लवायै शक्त्यै नमोऽस्तु शतपत्र निकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै नमोऽस्तु नालीक निभाननायै नमोऽस्तु दुग्धोदधि जन्मभूत्यै नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षी पद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसै कामुरारिहृदयेश्वरीं भजे निलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोगे त्रिभुवनभूतिकरि प्रसीद मह्यम् दिःखस्तिभिः कनककुम्भमुखावसृष्टा वाहिनी विमलचारु जलप्लुताङ्गिम् प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ गृहिणीममृतापि पुत्रीम् अवलोकय माम किञ्चनाना प्रथमं पात्रं कृत्रिमं दयायाः स्तुवन्ति ये स्तुतिभिरभूमिरन्वहम् त्रयीमयीं त्रिभुवनमातरं रमा गुणाधिकार